इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ब्रुनेई देशीयेन सुल्तान हाजी हसनल बोल्किया इत्यनेन सह संवादं विधास्यति। संवादावधौ विभिन्नानां सहभागिता ज्ञापनपत्राणाम् आदान प्रदानमपि भविष्यति। ध्यातव्यमस्ति यत् प्रधानमन्त्री श्रीमोदी ब्रुनेई सिंगापुरदेशयोः स्वकीयायाः यात्रायाः प्रथमे चरणे ह्यः बन्दर सेरी बेगवान नगरं प्राप्तवान्। विशिष्टरूपेण प्रधानमन्त्रिणः श्रीमोदिनः आगमनसमये युवराज्ञा हाजी अल मोहतादी बिल्लाह इत्यनेन तस्य स्वागतसत्कारं कृतम्। भारतीय प्रधानमन्त्रिणः ब्रुनेई देशस्य एषा प्रथमा द्वैपाक्षिक यात्रा अस्ति। अवधेयं वर्तते यत् भारत ब्रुनेई देशयोर्मध्ये राजनैतिक सम्बन्धानां स्थापनायाः चत्वारिंशत्तमस्य वार्षिकोत्सवस्य अवसरे एषा यात्रा भवति। इतः पूर्वं स्वकीये प्रस्थान वक्तव्ये श्रीमोदिना आशा प्रकटिता यत् अनया यात्रया ब्रुनेई सिंगापुरदेशाभ्यां व्यापकेन आसियान प्रदेशेन च सह भारतस्य सहभागित्वं इतोपि सुदृढं भविष्यति। असौ प्रोक्तवान् यत् उभौ देशौ भारतस्य एक्ट ईस्ट नीतौ भारत प्रशान्त दृष्टिकोण इत्यस्मिन् च महत्वपूर्णौ सहभागिनौ स्तः। असौ अग्रे उक्तवान् यत् भारत ब्रुनेई इत्युभाभ्यां परस्पर राजनैतिक सम्बन्धानां चत्वारिंशत् वर्षाणाम् उत्सवः मान्यते। श्रीमोदी अद्य स्वयात्रायाः द्वितीये चरणे सिंगापुरदेशं प्रति गमिष्यति। केन्द्र प्रशासन त्रिपुरा सर्वकार नेशनल लिबरेशन फ्रंट ऑफ त्रिपुरा ऑल त्रिपुरा टाइगर फोर्स इत्येतेषां प्रतिनिधीनां मध्ये अद्य नवदिल्ल्यां एकस्मिन् सहभागिता ज्ञापनपत्रे हस्ताक्षरं भविष्यति। अत्रावसरे केन्द्रीय गृहमन्त्री अमितशाहः त्रिपुरायाः च मुख्यमन्त्री मणिकसाहा उपस्थितौ भविष्यतः। केन्द्रेण पूर्वोत्तरे शान्तये समृद्धये च द्वादश सहभागित्वपत्रेषु हस्ताक्षरं पूर्वमेव कृतम्। प्रशासनेन रक्षा सज्जतां संवर्धयितुं पञ्चचत्वारिंशत् सहस्र कोट्यधिकैकलक्ष रूप्यकाणां प्रस्तावाः अनुमोदिताः। रक्षामन्त्रिणः राजनाथसिंहस्य अध्यक्षतायां रक्षाधिग्रहण परिषदा दश मूलधनाधिग्रहण प्रस्तावाः अभिस्वीकृताः। परिषदा फ्यूचर रेडी कॉम्बैक्ट व्हीकल एयर डिफेंस फायर कंट्रोल रडार इत्येतेषां क्रयणाय स्वीकृतिः अपि प्रदत्ता। पश्चिम बंगाल विधानसभाद्वारा दुष्कर्मोत्पीडनस्य अपराधाय कठोरदण्डस्य प्रावधानैः सह अपराजिता महिला बाल विधेयकं सर्वसहमत्या पारितम्। विधेयकमिदं राज्यपालस्य स्वीकृतेरनन्तरं राष्ट्रपतिं प्रति प्रेषयिष्यति। मुख्यमन्त्री ममता बनर्जी इत्येषा विधानसभायाम् उक्तवती यत् एतस्मिन् विधेयके मृत्युदण्डस्यापि प्रावधानं निहितमस्ति। अवधेयं वर्तते यत् एतद् विधेयकं विगतमासे राज्यसर्वकारस्य आरजीकर चिकित्सकीय महाविद्यालये चिकित्सालये च एकया महिला चिकित्सिकया सह दुष्कर्मणः हत्यायाः च अनन्तरम् आनीतमस्ति। अत्रावधौ चिकित्सालयस्य पूर्व प्राचार्यः डॉ संदीप घोषः निलम्बितः। राज्य स्वास्थ्य विभागेन ह्यः सायंकाले तस्य निलम्बनादेशः प्रसारितः। विश्व बैंक इत्यनेन वर्तमान वित्त वर्षाय भारतस्य वृद्धेः पूर्वानुमानं 6.6% संवर्ध्य 7% यावत् कृतमस्ति। अन्ताराष्ट्रिय वित्तीय संस्थानेन अवोचत् यत् देशस्य आर्थिकवृद्धिः मध्यमावधौ प्रबला भविष्यति। भारतस्य दीप्ति जीवनजी इत्येषा ह्यः पेरिस पैरालम्पिक इत्येतस्य महिलानां 400 मीटरात्मके द्वन्द्वे कांस्यपदकं समर्जितवती। दीप्तेः कांस्यपदकेन सहैव भारतस्य आहत्य पदकानां संख्या 16 जाता।